नमस्कारः सर्वेभ्यो नमस्कारः. वर्गस्य आरम्भः जातः. अत्र गृहपाठः आसीत् किञ्चित् यत्र सप्तमी विभक्तस्य कुत्र पुस्तकमस्ति अपि स्यूते पुस्तकमस्ति इति तादृशानि वाक्यानि लिखन्तु, पञ्चवाक्यानि लिखन्तु इति गृहपाठः आसीत्. कः कर्तुमिच्छति? प्रिया भगिनी भवती वक्तुमिच्छति वा? प्रिया भगिनी वक्तुमिच्छति वा गृहपाठस्य, अथवा हर्षिता भगिनी भवती वक्तुमिच्छति वा? प्रिया भगिनी अस्तु, प्रिया भगिनी वदतु, तदनन्तरं हर्षिता भगिनी भवती वदतु. अस्तु,
मम करपत्रं कुत्र अस्ति? तस्य दूरवाणी कुत्र अस्ति? मम बालिकायाः पुस्तकः कुत्र अस्ति?
पुस्तकं
कुत्र अस्ति? क्षम्यताम्. मन्दिरं कुत्र अस्ति?
मन्दिरं कुत्र अस्ति? वदतु भगिनि.
एतस्य वाहनं कुत्र अस्ति?
एतस्य वाहनं कुत्र अस्ति? अस्तु भगिनि. अस्तु, अन्यत् अस्ति वा अथवा तत् समीचीनमेव? अहं कति इति न चिन्तितवान्, अतः अहं पृच्छामि. अस्तु, हर्षिता भगिनी भवती वा वक्तुमिच्छति वा?
आं महोदय, चालकस्य वाहनं कुत्र अस्ति? रामस्य गृहं कुत्र अस्ति? भवत्याः माता कुत्र अस्ति? धनस्य रक्षणं कथं करणीयम्? चलनचित्रं कुत्र पश्यामः? गिरीशस्य पाठशालां कुत्र अस्ति?
पाठशाला
कुत्र अस्ति? मन्दिरं कदा मन्दिरं कुत्र अस्ति?
समीचीनं भगिनि, समीचीनं. प्रिया भगिनी समीचीनम् आसीत् भवत्याः अपि. अन्य कोऽपि वक्तुमिच्छति वा? रमाबाई भगिनी वक्तुमिच्छति वा?
धनं कुत्र अस्ति? धनं स्यूते अस्ति. बालकः कुत्र अस्ति? बालकः विद्यालये अस्ति. चालकः कुत्र अस्ति? चालकः वाहने अस्ति. वस्त्राणि कुत्र अस्ति? वस्त्राणि कपाटिकायाम् अस्ति.
समीचीनमस्ति भगिनि. अन्यदपि अस्ति वा अथवा? भगिनि अन्यत् अपि अस्ति वा अथवा तावदेव? अस्तु, नरेश् महोदय अथवा वेणुगोपाल् महोदय वक्तुम् इच्छति वा?
अहं प्रथमवारम् आगतवान्, अहं न जानामि.
वेणुगोपाल् महोदय, अस्तु अस्तु, प्रथमवारम्. आमामाम्, अस्तु, अद्य शृणोतु, अग्रिमसप्ताहे वदतु, गृहपाठं करोतु. अस्तु, नरेश् महोदय वक्तुम् इच्छति वा?
अहं नरेश अस्मि, अहं प्रथमवारम् आगतवान्.
भवान् अपि? अस्तु अस्तु, सरला भगिनी, अस्तु. किन्तु गृहपाठ तत् संस्कृतं 2013 मध्ये ईमेल् तत्तु प्राप्नु प्राप्नुवान् खलु भवान्? भगिनि नमस्कारः. गीता भगिनि नमस्कारः.
नमस्कारः
महोदय. अहं करोमि.
सरला भगिनी वदतु भगिनि.
अस्तु भो, मम वस्त्रं कुत्र अस्ति? कापिता निधानकायाम् अस्ति. दश पुस्तकानि स्यूते अस्ति. पञ्च पुस्तकानि स्यूते सन्ति. कुत्र कार्यं करोति तव मात्रा? कुत्र कार्यं करोति मम मात्रा? वित्तकोषे कार्यं करोति. कति बालाः क्रीडन्ति? अपि कुत्र क्रीडन्ति? पञ्चबालाः उद्याने क्रीडन्ति.
पञ्चबालाः, समीचीनं भगिनि, समीचीनं. वंशी श्रुता भगिनी, भवती अपि वक्तुम् इच्छति वा?
नमस्ते महोदय. क्षम्यता महोदय, किञ्चित् विलम्बः जातः. अहम् अग्रिम वदामि महोदय. इदानीम् आगच्छति महोदय.
अस्तु 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 अस्तु, चिन्ता मास्तु, चिन्ता मास्तु. चिन्ता मास्तु भगिनि. अस्तु अस्तु, अत्र अत्र किं गृहपाठे किम् अभवत्? किञ्चित् अभ्यासः. तत्र कुत्र अस्ति, पुस्तकं कुत्र अस्ति, अथवा बालकः कुत्र अस्ति इति उत्तरं कार्यालये वा उत्पीठिकायां वा. कार्यालये इति पुल्लिङ्गे भवति, उत्पीठिकायाम् इति स्त्रीलिङ्गे भवति. अपि स्त्रीलिङ्गे आकारान्त अस्ति चेत् उत्पीठिकायाम् इति, यदि ईकारान्त अस्ति काशी इति काश्याम् इति भवति. तत्र किञ्चित् तस्य अभ्यासं गतसप्ताहे अभवत्. इदानीम् अग्रे सरामः. तत्र कथा इति विषयः अग्रिमपुटे. तत्र कः पठितुम् इच्छति? गीता भगिनी, भवती अकर वदति वा कदा इति? तत्र पठति वा भवती?
अभ्यासपुस्तकं वा? अभ्यासपुस्तकं
तदेव.
कदा कदा एतेषां प्रश्नानाम् उत्तरं लिखतु. यथा भवान् कदा उत्तिष्ठति? अहं पञ्चवादने उत्तिष्ठामि. भवान् कदा विद्यालयं गच्छति? अहं नववादने विद्यालयं गच्छामि.
समीचीनं भगिनि. अत्र एकं पश्यामः. अत्र गतपुटे किम् अभवत्? कुत्र इति यदि प्रश्नः आसीत्, तत्र वयं किं कुर्मः? सप्तमी विभक्ति इति वदामः कार्यालये इति. तादृशः कुत्र इति, लोकेशन् रीजन् वेर् आर् यु इति, तस्य प्रश्नस्य उत्तरम् उत्तरे किं भवति? सप्तमी विभक्ति भवति. किन्तु समयः कदा तत्रापि उत्तरे किं भवति? सप्तमीविभक्ति एव भवति. समयः समयस्य विषये अपि सप्तमीविभक्ति एव भवति. अस्तु,
कदा
न विद्यालये गच्छामि न, अहं नववादने नववादने तत्र नववादनम् अस्ति, किन्तु नववादने विद्यालयं गच्छामि इति उत्तरं भवति. विद्यालयं तत्र परिवर्तनं न भवति.
द्वितीया विभक्ति
समयस्य विषयं तत्र नववादने, सप्तवादने, सार्ध अष्टवादने, तत्र वादनम् इति न वदामः, किन्तु वादने इति भवति. अस्तु भगिनि, भवती एकं कृतवती. अग्रे सरला भगिनी, अग्रिमं सूर्योदयः इति तत् पठित्वा उत्तरमपि ददातु भवती.
ओके, सूर्योदयः कदा भवति? सूर्योदयः सप्तवादने भवति.
सूर्योदयः सप्तवादने, तत् तावत् तावत्. तत्र किं कस्य पदस्य सप्तमी विभक्ति रूपम् अस्ति उत्तरे?
सप्तवादने
सप्तवादने. समीचीनं भगिनि. अस्तु, नरेश् महोदय अथवा वेणुगोपाल् महोदय, अभ्यासपुस्तकं तु अस्ति, कुत्र स्मः इति जानन्ति खलु?
न जानामि महोदय.
अभ्यासपुस्तकं 5.4 a kada meaning when. हर्षिता भगिनी अग्रिमं करोति वा? भवती कदा क्रीडति?
भवती कदा क्रीडति? अहं 6 PM क्रीडामि.
हा, समीचीनं. प्रिया भगिनी अग्रिमम्.
भवती कदा पठति? अहं सार्धचतुर्वादने पठामि.
हा, समीचीनं भगिनि. हा, अस्तु, इदानीं तत्र कः, वेणुगोपाल् महोदय अपि नरेश् महोदय, भवन्तः अवगमनम् अस्ति वा तत्र? किञ्चित् अवगच्छन्ति वा? वेणुगोपाल् महोदय?
अवगच्छामि महोदय, किन्तु पृष्टं.
अस्तु, यदि प्रश्नः अस्ति चेत् पृच्छतु. कुत्र प्रश्नः इति?
अस्तु, प्रश्नः पेज् नम्बर् इति,
पेज् नम्बर् 26 अथवा 5.4 a. कदा?
धन्यवादः.
वेणुगोपाल् नरेश् महोदय, प्रश्नः अस्ति वा? अस्तु, अस्तु, तत्र प्रश्नः, भवान् कदा अथवा भवती कदा अथवा रमेशः कदा पाठशालां गच्छति इति तादृशः प्रश्नः अस्ति. उत्तरं 5 PM अथवा तादृशसप्तमीभक्तिरूपं भवति. अस्तु, तत्र अग्रिममपि कुर्मः, तदनन्तरं अन्य अभ्यासः कुर्मः. अस्तु, वंशीसुधा भगिनी अग्रिमं पठति वा एतेषां 5.4 a इति?
आं महोदय. अस्तु महोदय. एतेषाम् उत्तराणां प्रश्नं लिखतु. सीता सायङ्काले नृत्याभ्यासं करोति. सीता कदा नृत्याभ्यासं करोति?
समीचीनं भगिनि. प्रश्नः,
सीता कदा नृत्याभ्यासं करोति?
तत्र केवलं सायङ्काले, तत्र तस्य परिवर्तनं भवति, सायङ्काले कदा इति भवति प्रश्ने. नृत्याभ्यासं वा करोति वा अथवा सीता, तत्र परिवर्तनं न भवति. सत्यं वा? सत्यं खलु?
अस्तु,
सरलभगिनी अग्रिमं पठतु भगिनि.
वेङ्कटेशः 6 PM योगासनं करोति. वेङ्कटेशः कदा योगासनं करोति?
समीचीनं भगिनि. अस्तु, हर्षिता भगिनी अग्रिमं.
माता 10 PM पाकं करोति. माता कदा पाकं करोति?
समीचीनं. अस्तु, प्रिया भगिनी अग्रिमं.
सा प्रातःकाले पूजां करोति. सा कदा पूजां करोति?
समीचीनं. रमाबाई भगिनी अग्रिमम्.
अहं मध्याह्ने भोजनं करोमि. भवान् कदा भोजनं करोति?
समीचीनं, समीचीनं भगिनि, समीचीनं. अस्तु, इदानीं भवन्तः एव, भवत्यः एव एकः प्रश्नः अपि, तस्य उत्तरमपि चिन्तयन्तु. कदा इति प्रश्नः अपि, तस्य उत्तरं अस्मिन् एतस्मिन् समये षड्वादने वा सप्तवादने वा सार्ध अष्टवादने वा इति एकः प्रश्नः तस्य उत्तरमपि कदा इति तादृश अस्तु कः प्रथमं वक्तुम् इच्छति
अस्तु अहं करोमि
अस्तु भगिनि
भवती कदा उत्तिष्ठति प्रातःकाले पादोन षड्वादने उत्तिष्ठामि
समीचीनं भगिनि अग्रे
अहं वदामि महोदय भवतः कदा कार्यालयं गच्छति
भवतः भवान्
भवान् अस्तु भवान् कदा कार्यालयं गच्छति भवतः भवतः सार्ध नववादने अहं सार्धनववादनं कार्यालयं गच्छामि
समीचीनं महोदय समीचीनम् अस्तु अन्य प्रिया भगिनी वदतु
सा कदा गृहपाठं करोति सा सायङ्काले पञ्चवादने गृहपाठं करोति
समीचीनं भगिनि समीचीनं अन्य सरला भगिनी वदति वा
अद्य अद्य सूर्यास्त कदा अभवत् अद्य सूर्यास्त सपाद चत्वारवादने
चतुर्वादने पुनः पुनः पूर्णवाक्यं वदतु भगिनि
अद्य सूर्यास्त कदा अभवत् अद्य सूर्यास्त चतुर सपादवादने अभवत्
सपादचतुर्वादने
अभवत्
प्रथमं सपाद तदनन्तरं वादनं अतः सपादचतुर्वादने अभवत् तत्र समीचीनं भगिनि तत्र सपाद अस्ति चेत् अपि चतुर्वादने एव भवति तत्र तत् मुख्यांशः अस्ति बहु समीचीनमस्ति भगिनि सपाद अथवा पादो न किमपि भवतु पूर्वं नववादने सपादनववादने पादोन नववादने रूपं तदेव भवति वादने एव भवति समीचीनं भगिनि गीता भगिनी पठनं पठति वा गीता भगिनी वदतु
बालः कदा गृहमागच्छति अहं पञ्चवादने गृहमागच्छति
अहम् इति अस्ति चेत् आगच्छामि समीचीनं वंशीसुधा भगिनी भवती वदति वा
आं महोदय अद्य कदा संस्कृतकक्षा आरभ्यते अद्य षड्वादने संस्कृतकक्षा आरभ्यते
समीचीनं भगिनि समीचीनं अस्तु नरेश महोदय भवान् वक्तुमिच्छति वा
भवान् कदा योगासनं करोति अहं सायं पञ्चवादने योगासनं करोमि
अत्र सायङ्काले पञ्चवादने तदपि समीचीनमेव अस्ति महोदय पूर्णसायङ्कालं सायङ्काले अपि तदपि वदतु अहं
पञ्चवादने सायङ्काले योगासनं करोमि
समीचीनं महोदय अस्तु वंशीसुदेव उक्तवती गीता हर्षितभगिनी भवती उक्तवती वा न
न महोदय
भवती
कदा शयनं करोति अहं नववादने शयनं करोमि
समीचीनं भगिनि वेणुगोपाल् महोदय वक्तुम् इच्छति वा
आं महोदय भवती श्वः कदा गृहम् आगच्छति अहं प्रातः सप्तवादने आगमिष्यामि
अस्तु अस्तु महोदय समीचीनं समीचीनम् अस्ति महोदय अस्तु तत्र रूपस्य अवगमनम् अभवत् वा कदा इति प्रश्नः उत्तरे नववादने अथवा सायङ्काले अथवा प्रातःकाले पञ्चवादने अथवा तादृशः उत्तरं भवति सप्तमी विभक्तिरूपम् उत्तरे भवति इति तत्र प्रश्नः अस्ति चेत् कृपया पृच्छतु नो चेत् अग्रिमपुटे गच्छामः एतत् अभ्यासपुस्तकं सर्वे कृतवन्तः इति कृत्वा किञ्चित् यदस्ति तदेव अत्र कुर्मः तदनन्तरं यदि गीतासोपाने तु तत्र प्रत्येकपुटे बहुकालं तिष्ठामः अस्तु तत्र प्रश्नः अस्ति वा कदा इति प्रश्नवाचक अथवा उत्तरे अस्तु अस्तु अतः अग्रिमपुटे यदस्ति तत्र अद्य वर्गः संस्कृतवर्गः इदानीं प्रचलति ह्य अद्य मङ्गलवासरः अस्ति ह्यः सोमवासरः अस्ति अत्र भारतदेशे तु अद्य बुधवासरः अस्ति किन्तु अद्य मङ्गलवासरः इति चिन्तयामः ह्यः सोमवासरः अस्ति श्वः बुधवासरः भवति अद्य अस्ति तस्य पूर्वं पूर्वदिनं ह्यः इति भवति अग्रिमदिनं भवति श्वः ह्यः अस्ति तस्य पूर्वं परह्यः अस्ति तस्य पूर्वं प्रपरह्यः अस्ति अद्य अस्ति अग्रिमदिने श्वः भवति तस्य अग्रिमदिनः परश्वः भवति तदनन्तरं प्रपरश्वः भवति अस्तु अत्र यदस्ति तत् चिन्तयामः तत्र अस्तु कः पठति वेणुगोपाल् महोदय भवान् पठति वा तत्र 5.5 यदस्ति
अस्तु अद्य भानुवासरः परपरश्वः शनिवासरः
अद्य भानुवासरः अस्तु अतः शनिवासरः कदा भवति
शनिवासरः
परश्वः न न न अद्य
अस्तु 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 परह्यः
न न शनिवासरः भानुवासरः इत्युक्ते सण्डे रविवासर रविवासर समानं
ह्यः शनिवासर
ह्यः शनिवासर अस्तु समीचीनं रमाबाई भगिनी अग्रिमं सोमवासरः
अद्य सोमवासरः
न न अद्य भानुवासरः इति चिन्तयामः समीचीनं प्रिया भगिनि अद्य भानुवासरः इदानीं मङ्गलवासरः इति करोतु
अद्य भानुवासरः परश्वः मङ्गलवासरः
परश्वः मङ्गलवासरः अस्तु हर्षिता भगिनी इदानीं शुक्रवासरः
अद्य भानुवासरः परह्यः शुक्रवासरः
समीचीनं समीचीनं भगिनि अस्तु इदानीं सरला भगिनी तत्र प्रपरह्यः इति कदा इति वदतु अद्य भानुवासरः प्रपरह्यः
बृहस्पतिवासर गुरुवासर
समीचीनं भगिनि तत्र समीचीनं न श्रूयते तत्र प्रपरह्यः इति वदतु प्रपरह्यः
प्रपरह्य गुरुवासर
ह्यः
प्रपरह्यः गुरुवासर
समीचीनं भगिनि अस्तु गीता भगिनि इदानीं तत्र बुधवासर इति
अद्य भानुवासरः श्वः परश्वः प्रपरश्वः बुधवासरः
अस्तु समीचीनं तत्र अद्य इति जानीमः चेत् तत्र श्वः परश्वः प्रपरश्वः अस्ति ह्यः परह्यः प्रपरह्यः इति कृत्वा कति वासरः सन्ति तत्र कति दिनाः सन्ति तत्र सप्तदिनाः सन्ति अस्तु सप्तदिनानि सन्ति दिनानि धन्यवादः भगिनि सप्तदिनानि सन्ति अत्र अतः एकस्य वासरः जानीमः अस्य भानुवासरः इति जानीमः चेत् सर्वे अपि वासराः तत्र आगच्छन्ति तत्र भानुवासर प्रथमम् अस्ति तदनन्तरम् अन्यत् सर्वम् आगच्छति तत्र अस्तु इदानीम् अद्य मङ्गलवासरः
एकः प्रश्नः अस्ति यदि अद्य मङ्गलवासरः अस्ति ह्य अस्ति भवति ह्य सोमवासर अस्ति
आसीत् किन्तु अत्र आसीत् एव समीचीनं किन्तु अत्र अभ्यासपुस्तक अस्ति खलु अतः अस्ति
केवलं क्रियापदं न वदामः
आम् अत्र अद्य भानुवासरः श्वः शनिवासरः किन्तु क्रियापदम् आसीत् एव तदेव समीचीनं अत्र आम् सत्यं वंशी भगिनी तत्र अद्य मङ्गलवासरः इति यदस्ति तद् कुर्मः
महोदय बृहस्पतिवासर समीचीनमस्ति वा गुरुवासर कः
किं भगिनि गुरुवासरः अथवा अन्यत् किं
बृहस्पतिवासर
बृहस्पतिवासरः अपि तदपि स जनाः तस्य प्रयोगमपि अस्ति बृहस्पतिवासरः अथवा गुरुवासरः समीचीनमेव वंशीसुधा भगिनी अग्रिमं करोति वा अद्य मङ्गलवासरः इति
अस्तु महोदय अद्य मङ्गलवासरः श्वः बुधवासरः परश्वः गुरुवासरः परपरश्वः शुक्रवासरः ह्यः सोमवासरः
एकनिमिष अन्ये कुर्वन्ति समीचीनमस्ति समीचीनमस्ति भगिनि अस्तु 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 कः न अस्तु हर्षिता भगिनि अत्र अद्य मङ्गलवासरः अतः ह्यः परह्यः इति करोतु
आं महोदय अद्य मङ्गलवासरः ह्यः सोमवासरः परह्यः भानुवासरः प्रपरह्यः शनिवासरः
समीचीनं प्रिया भगिनि अद्य बुधवासरः श्वः परश्वः प्रपरश्वः इति वदतु अद्य बुधवासरः इति चिन्तयतु
अस्तु अद्य बुधवासरः श्वः गुरुवासरः परश्वः शुक्रवासरः प्रपरश्वः शनिवासरः
शनिवासरः समीचीनं भगिनि. अस्तु, वेणुगोपाल् महोदय, तत्र अद्य शनिवासरः इति चिन्तयतु. वेणुगोपाल् महोदय अद्य, अस्तु, वेणुगोपाल् महोदय नास्ति इति मन्ये. अस्तु, गीता भगिनी, अद्य शनिवासरः इति चिन्तयतु. ह्यः, परह्यः, प्रपरह्यः किम् इति वदतु.
अद्य शनिवासरः, ह्यः शुक्रवारः,
शुक्रवासरः,
परह्यः गुरुवासरः, प्रपरह्यः बुधवासरः.
समीचीनं भगिनि, अस्तु,
धन्यवादः.
कोऽपि न कृत. नरेश महोदय, भवान् करोति वा? अस्तु, अद्य सोमवासरः इति चिन्तयतु. श्वः, परश्वः, प्रपरश्वः इति वदतु.
अद्य सोमवासरः, श्वः मङ्गलवासरः, प्रश्वः बुधवासरः, प्रप्रश्वः गुरुवासरः,
प्रपरश्वः
गुरुवासरः,
गुरुवासरः, प्रपरश्वः गुरुवासरः. तत्र प्रपर पर प्रपर श्वः अपि पर ह्यः प्रपर ह्यः इति सुलभं भवति. समीचीनमेव महोदय. अस्तु, तत्र दिनस्य वर्णनं कथं कुर्मः इति इदानीं तस्य ज्ञानम् अभवत्. तत्र अग्रे प्रश्नः अस्ति चेत् पृच्छन्तु, नो चेत् अग्रे गच्छामः. 5.6 इति यदि अस्ति. अस्तु, हा, प्रिया भगिनी अग्रे पठति वा तत्र?
दूरवाणी भङ्ग अभवत् अन्यं.
अस्तु सरला भगिनी, नमस्ते. अस्तु,
प्रथमवाक्यं पठित्वा, प्रथमवाक्यं पठित्वा प्रश्नस्य उत्तरं लिखतु. अद्य षोडशदिनाङ्कः, पञ्चदशदिनाङ्कः कदा, पञ्चदशदिनाङ्कः ह्यः, अद्य सोमवासरः, मङ्गलवासरः कदा, श्वः मङ्गलवासरः.
श्वः मङ्गलवासरः, अस्तु, हा, इदानीं बहु समीचीनमस्ति भगिनि. हर्षिता भगिनी अग्रे पठति वा तत्र?
आं महोदय, अद्य चतुर्विंशति तमदिनाङ्कः, त्रयोविंशतितमदिनाङ्कः कदा, षड्विंशतिदिनाङ्कः परश्वः.
परश्वः, अस्तु, समीचीनं भगिनि. हा, अस्तु, अत्र कदा इति तत्र तस्य प्रयोगं न कृतवन्तः. पञ्चदशदिनाङ्कः तस्य इदानीं चिन्ता मास्तु, किन्तु ह्यः श्वः इति तस्य अभ्यासः कुर्मः. अहं प्रश्नं पृच्छामि, उत्तरं वदन्तु. रमाबाय् भगिनी, अद्य
महोदय
तमदिनाङ्कः 26th डे इति. तम इत्युक्ते
24th डे. ओके,
हा, संख्या इति, हा, संख्या इति 24 भवति. चतुर्विंशतितम इति तद् 24th इति तादृशः भवति.
धन्यवादः.
तत्र नाम अपि अस्ति किन्तु अहं न स्मरामि. तम इति युक्ते तत्र गीतासोपाने आगच्छति, अहं न स्मरामि, किन्तु गीतासोपाने प्रथमभागे अथवा द्वितीयभागे अस्ति सङ्ख्या, एतत् सङ्ख्या नास्ति, अन्यनाम अस्ति अत्र, किन्तु तम इत्युक्ते 26 तादृश. अस्तु, रमाबाय् भगिनी, अद्य सोमवासरः, बुधवासरः कदा भवति? बुधवासरः कदा? अद्य सोमवासरः, बुधवासरः कदा? रमाबाय् भगिनी,
परश्वः बुधवासरः महोदय.
परश्वः, हा परश्वः, श्रूयते, इदानीं श्रूयते भगिनि, इदानीं श्रूयते,
समीचीनं,
परश्वः बुधवासरः. सरला भगिनी, अद्य मङ्गलवासरः, रविवासरः अथवा भानुवासरः कदा?
भानुवासरः
अद्य मङ्गलवासरः,
परह्यः भानुवासरः,
परह्यः भानुवासरः. अस्तु, गीता भगिनी, अद्य शनिवासरः, गुरुवासरः कदा भवति? कदा?
परह्यः,
परह्यः
अद्य शनिवासरः,
अद्य शनिवासरः,
परह्यः गुरुवासरः.
हा, समीचीनं. वंशीसुधा भगिनी, अद्य शुक्रवासरः, सोमवासरः कदा?
परह्यः सोमवासरः, शुक्रवासरः या शनिवासरः?
शुक्रवासरः,
शुक्रवासरः, अद्य शुक्रवासरः, प्रपरह्यः सोमवासरः.
ह्यः वा अथवा श्वः वा?
प्रपरह्यः
सोमवासरः.
सोमवासरः
कथम्? अद्य शुक्रवासरः,
अद्य शुक्रवासरः, शुक्रवासरः सोमवासरः,
न अद्य शुक्रवासरः, ह्यः,
ह्यः बुधवासरः, गुरुवासरः,
गुरुवासरः, गुरुवासरः,
प्रपरह्यः बुधवासरः,
परह्यः,
परह्यः बुधवासरः, प्रपरह्यः मङ्गलवासरः, तदनन्तरं किं वदामि महोदय?
न न, अग्रे गच्छतु.
श्वः, क्षम्यतां महोदय, क्षम्यतां, क्षम्यतां महोदय. अद्य शुक्रवासरः, परश्वः, प्रपरश्वः सोमवासरः.
हा, समीचीनं भगिनि. हा, तत्र तत्र भवती किं कृतवती तत् समीचीनमेव अस्ति, किन्तु तत्र किम् अस्ति चेत् अद्य श्वः परश्वः प्रपरश्वः अपि ह्यः परह्यः प्रपरः ह्यः तत्र कति सङ्ख्याः सन्ति? सप्तसङ्ख्याः सन्ति, अतः सप्तवासरः सन्ति अत्रापि, सप्त, अतः एकमेव भवति. हा, एकमेव भवति. अस्तु, समीचीनमेव अस्ति. हा, अस्तु, वेणुगोपाल् महोदय, सर्वे, हा, सर्वे कृतवन्तः इति मन्ये. अस्तु, तत्र अग्रे गच्छामः. तत्र विंशतितम, तत्र तस्य इदानीं मास्तु इति चिन्तयित्वा गीतासोपाने तत् विस्तररूपेण कुर्मः. अत्र सङ्ख्यायाः परिचयः इदानीं न जातम्, अतः तम इति तस्य प्रयोगः अस्ति इति चिन्तयामः, किन्तु अग्रे गीतासोपने सम्यक्तया कुर्मः अग्रे. अस्तु, इदानीं वंशीसुधा भगिनी, अत्र, हा, वंशीसुधा भगिनी अग्रे पठति वा 6.1 मध्ये?
आं महोदय,
तत्र किञ्चित् पठतु, तदनन्तरम् अन्य कोऽपि पठतु तत्र.
आम्, एतत् सम्भाषणं पठतु. हरिः ओम्, सुप्रभातम्, नमस्ते श्रीमान्, स्वागतम्, आगच्छतु, उपविशतु, धन्यवादः. सर्वं कुशलं वा? आम्, कुशलं. भवान् एतत् पुस्तकं स्वीकरोतु. कथम् अस्ति एतत् पुस्तकम्? समीचीनम् अस्ति, भवान् अपि पठतु।
भगिनी भगिनी अस्तु अस्तु अग्रे अन्य कोऽपि पठतु इति। धन्यवादः भगिनी। वेणुगोपाल् सरला भगिनी पठति वा अग्रे?
अस्तु अस्तु, अनन्तरं पठामि। अहं गच्छामि। तिष्ठतु, पानीयं स्वीकरोतु। क्षम्यतां, मास्तु, किञ्चित् स्वीकरोतु। अस्तु, धन्यवाद्। शर्करा अधिका अस्ति किल? चिन्ता मास्तु, पिबति। अहम् आगच्छामि। नमस्कारः नमस्कारः।
तत्र सम्भाषणम् अस्ति, हरि ओम्, सुप्रभातम्। सुप्रभातम् इत्युक्ते
गुड् मार्निङ्ग्।
गुड् मार्निङ्ग्। अस्तु, नमस्ते श्रीमन्। श्रीमन् इति तत्र श्रीमन्
सम्बोधनं,
श्रीमत् सम्बोधनम् अस्ति। श्रीमत् इति प्रातिपदिकं, श्रीमान् इति प्रथमविभक्तो भवति, श्रीमन् इति सम्बोधनं भवति। स्वागतम्, आगच्छतु, उपविशतु, तद् वयं जानीमः वा? आगच्छतु, उपविशतु, तत् किमस्ति? प्रेरणार्थकम् अथवा आज्ञार्थकम् इति लोट् लकारः इति वदामः, किन्तु पेज् 15 मध्ये दृष्टवन्तः, 2.4 मध्ये दृष्टवन्तः, गच्छति, गच्छतु, आगच्छति, आगच्छतु इति तदेव अस्ति। आगच्छतु, उपविशतु, धन्यवादः, सर्वं कुशलं वा इति, इस् एव्रिथिङ्ग् फैन्? आं कुशलं, भवान् एतत् पुस्तकं स्वीकरोतु। तत्र इदानीं नूतनविषयः आगतमस्ति अत्र, तद् किमस्ति इति कोऽपि वदति वा? भवान् एतत् पुस्तकं स्वीकरोतु।
दिस् बुक्,
पुस्तक, एतत् पुस्तकम् इति जानीमः,
पुस्तकं, दिस् बुक्,
दिस् बुक् स्वीकरोतु। किन्तु एतत् पुस्तकम् इति वयं प्रथममपि दृष्टवन्तः, अत्र किञ्चित् भेदः अस्ति। अत्र कर्मपदम् अस्ति, भवान् इति कर्तृपदम् इति वदामः, स्वीकरोतु इति क्रियापदं भवति, एतत् पुस्तकं तत् कर्मपदम् इति वदामः, आब्जेक्ट् इति, सब्जेक्ट् वर्ब् आब्जेक्ट् इति, तत् कर्मपदम् अस्ति। तस्य विभक्ति सर्वदा द्वितीया विभक्ति एव भवति, अतः तत्र पुस्तकम्, एतत् पुस्तकं, तत् नपुंसकलिङ्गे अस्ति, अतः पुस्तकं पुस्तकमेव भवति। अत्र भवान् एतत् अन्यत् किमपि अस्ति, वयं पश्यामः न पुल्लिङ्गे किं कीदृशं भवति इति। कथम् अस्ति एतत् पुस्तकं? समीचीनम् अस्ति, भवान् अपि पठतु। अस्तु, अनन्तरं पठामि, अहं गच्छामि। पानीयं स्वीकरोतु, पानीयं, तत्रापि तत् कर्मपदमस्ति, भवान् पानीयं स्वीकरोतु इति भवति। अहं गच्छामि, अहं गच्छामि, तत्र कर्मपदं नास्ति, अहम् इति कर्तृपदं, गच्छामि तत् क्रियापदम्, आक्षन् इति यत् वदामः, क्रियापदं गच्छामि, तद् क्रिया भवति। यः क्रिया करोति तत् कर्तृपदम् इति वदामः, सः कर्तुः इति। यः क्रियां करोति, अहं गच्छामि, क्रिया तत्र अस्ति, गच्छति इति क्रिया। कः गच्छति? अहं, स कर्तृपदं भवति, अहं गच्छामि, अहं कर्तृपदं, गच्छामि क्रियापदम्। अस्तु, क्षम्यतां, पानीयं स्वीकरोतु, क्षम्यतां, मास्तु, किञ्चित् स्वीकरोतु। अस्तु, धन्यवादः। शर्करा अधिका अस्ति किल? चिन्ता मास्तु, अहम् आगच्छामि, नमस्कारः। तत्र प्रायशः कोऽपि प्रश्नः नास्ति इति मन्ये, यदि प्रश्नः अस्ति चेत् पृच्छतु। यत्र यस्य वाक्यस्य अवगमनं नास्ति तत् कृपया पृच्छतु, अहं वदामि।
एकः प्रश्नः अस्ति महोदय, अधिका अन्वय,
अधिका अस्ति किल? न, अधिका अभ्यय नास्ति, अधिकः, अधिकम् इति, तत्र किमर्थं तद् अधिका अस्ति? शर्करा इति अस्ति, शर्करा इति स्त्रीलिङ्गपदम् अस्ति, अतः अधिका इति भवति। त तत्र अधिका शर्करा, तत्र अग्रे
पश्यामः.
विशेषणम् अस्ति, समीचीनं भगिनि, विशेषणम् अस्ति. अतः विशेष्यस्य यः लिङ्गं, यत् लिङ्गं, तदेव लिङ्गं विशेषणस्य अपि. अतः तत् अधिका अस्ति. हा समीचीनं भगिनि. अन्यप्रश्नः अस्ति वा? अत्र एतत् पुस्तकं स्वीकरोतु, कर्मपदं यत् आगच्छति तदेव इदानीम् अग्रिमपुटे तदेव भवति. यत्र गच्छामः तत्र केवलम् अहं गच्छामि इति अस्ति, किन्तु तत्र अहं वयं वक्तुं वयं प्रष्टुं शक्नुमः भवान् कुत्र गच्छति अथवा भवान् किं गच्छति इति. अहं विद्यालयं गच्छामि इति उत्तरं भवति. अथवा भवान्
किल इति पदं प्रश्नार्थे भवति वा किमपि उत्तरं वा?
हा तत् प्रश्नार्थकम् अपि भवति. अत्र प्रायशः स जानाति उत्तरं, स जानाति अतः किल इति. इस् देट् नाट् सो इति, किन्तु सः आम् इति उत्तरमपि सः जानाति, अतः तत्र केवलम् एक्स्क्लमेशन् इति दत्तमस्ति. किन्तु किल इति प्रश्नवाचकः इति वक्तुं शक्नुमः. समीचीनमेव.
तत् अव्ययः अस्ति न तस्य?
किल किल अव्ययः अव्ययम् अस्ति. आम् आम् आं समीचीनं, सत्यं. लिङ्गं नास्ति, किल अव्ययम् अस्ति, सत्यम्. अन्यप्रश्नः अस्ति वा तत्र? तत्र भवान् एतत् पुस्तकं स्वीकरोतु, भवान् स्वीकरोतु इति वाक्यमस्ति चेत् भवान् किं स्वीकरोतु इति प्रश्नः भवति. अथवा भवान् भवान् पठतु, किं पठतु इति प्रश्नः भवति. उत्तरं भवति कर्मपदम् अथवा पाठं पठतु अथवा पाठशालां गच्छतु इति, तत्र उत्तरं भवति. तदेव अग्रिमपुटे एतत् कर्मपदस्य अभ्यासः भवति. द्वितीयाविभक्ति इति वदामः, कुत्र गच्छति अथवा किं गच्छति, तत् समीचीनं समानार्थकम् अस्ति. अत्र अग्रिमपुटे सः पठति
महोदय.
किं भगिनि पुनः एकवारं वदतु?
किल अर्थः इस् इट् सो इदानीमेव महोदय. किल किल इस् इट् इस् इट् नाट् किल महाप्राणक्ष किल
समानार्थकम् इति मन्ये भगिनि.
कथम् उपयोगं करोमि किल कथम् उपयोगं करोमि किल खलु कथम् उपयोगं करोमि.
हा किन्तु अहं चिन्तयामि किल खलु समानार्थकशब्दाः सन्ति इति. किन्तु इति मम मनसि अस्ति, किन्तु एकवारं पृच्छामि यदि तद् समीचीनमस्ति न वा इति. हा अहं चिन्तयामि किल अपि खलु समानार्थकः इति. किन्तु पृच्छामि, पृष्ट्वा अहं वदामि अग्रिमसप्ताहे.
किञ्चित् भवान् महोदय गुरुमहोदय सर्वे अपि उपयोगं कृत्वा अहं किञ्चित् प्रश्नः सन्ति सर्वेषां, कथं किल उपयोगं करोमि कथं खलु उपयोगं करोमि.
आमामां समीचीनः प्रश्नः, समीचीनः अस्ति. दृष्ट्वा अहं यदि उत्तरं प्राप्तं चेत् वदामि.
महोदय एकप्रश्नः, नमस्कार इति नामपदम् अस्ति न?
नमस्कारः
स्वागतं क्षम्यतां सर्वे नामपदानि न
सुप्रभातं स्वागतं नामपदम् आम् सुप्रभातं नमस्कारः सर्वं नामपदम् आम् नामपदम् आम् सत्यं नमस्कारं नमस्कारः तत्र नमस्कारः
प्रथमाविभक्त्याम् उपयोगं भवति
आमाम् अत्र नमस्कारः इति अस्ति किन्तु नमस्कारं करोमि इति भवति
अस्तु आमाम्
अत्र द्वितीयविभक्ति अपि
देवं नमस्कारं करोमि अस्तु
तद्
स्वागतं क्षम्यतां द्वयमपि क्रियापदमस्ति खलु
किं भगिनि
स्वागतं च क्षम्यतां क्रियापदं खलु नामपदं वा
स्वागतं
स्वागतम् इत्युक्ते वेल्कम् खलु
आम्
पदानि सन्ति
तत्र क्रियापदे पदा तत्र धातु अस्ति सत्यं किन्तु तद् नामपदम् इति मन्ये भगिनि
तस्य उपयोग नामपदम्
तत्र स्वागतं तु नामपदमेव क्षम्यतां तत् प्रायशः क्रियापदमेव अस्ति इति मन्ये क्षम्यताम् इति तद् लकाररूप एव अस्ति खलु त्वं क्षम्यताम् इति तद् क्षम्यतां प्रायशः क्षम्यतां तत् क्रियापदमस्ति किन्तु स्वागतं किन्तु स्वागतं प्रायशः नामपदमस्ति इति मन्ये भगिनि
प्रत्यय न्यूट नपुंसकलिङ्गं
स्वागतं नामपदमेव अस्ति क्षम्यतां तद् क्रियापदं तत्तु सत्यं प्रिया भगिनी समीचीनं वा इदानीम्
अस्तु
अस्तु अस्तु भगिनि अस्तु अग्रे गच्छामः हर्षिता भगिनी भवती पठति वा अग्रे
विद्यालयः
तत्र चित्रमस्ति किन्तु अधोभागे
चित्रं दृष्ट्वा उदाहरणं दृष्ट्वा तादृशानि वाक्यानि लिखतु मम मित्रं विद्यालयं गच्छति ग्रन्थालयः मम मित्रं ग्रन्थालयं गच्छति
तदेव अस्ति भगिनि तदेव इदानीम् अभ्यासः किम् अस्ति चेत् विद्यालयः विद्यालयम् इति द्वितीयविभक्तिरूपं तत्र आवश्यकमस्ति ग्रन्थालयः ग्रन्थालयम् इति भवति प्रिया भगिनी अग्रिमं वदति वा
महोदय देवालयः मम माता देवालयं गच्छति
समीचीनं भगिनि वेणुगोपाल् महोदय नास्ति नरेश् महोदय वदति वा अग्रिमं कार्यालयः इति अस्ति
कार्यालयः मम पिता कार्यालयं गच्छति
समीचीनं सरला भगिनी अग्रिमम् आपणः
विक्रेता आपणम् अस्ति
गच्छति इति
बालकः आपणं गच्छति
समीचीनं भगिनि रमाबाई भगिनि
मम पिता वित्तकोशं गच्छति
न तत्र रेल् स्थानकम् इति अस्ति रेल् स्थानकं रमाबाई भगिनी रेल् स्थानकम् इति
रैल्स्थानकमा मम मित्रं रैल्स्थानकं गच्छति.
समीचीनं भगिनि. अस्तु गीता भगिनि अग्रिमं चित्रमन्दिरम्.
अहं चित्रमन्दिरं गच्छामि.
समीचीनं भगिनि. हा मम शिशुता भगिनि.
अस्तु अहं पुत्रिका सह उद्यानं गच्छामि.
हा समीचीनम्. इदानीं प्रदर्शिनी अस्ति.
एकनिमिषं महोदय.
हा
महोदय किञ्चित् कार्यमस्ति, अहम् अग्रिमवर्गे आगच्छामि.
अस्तु अस्तु भगिनि, चिन्ता मास्तु, चिन्ता मास्तु.
धन्यवादः.
नमस्कारः. नमस्कारः भगिनि. नमस्कारः. अस्तु प्रदर्शिनी इति वंशीसुधा भगिनी भवती एव वदति वा तत्र किं भवति इति?
ईकारम् अहं प्रदर्शिनी गच्छामि महोदय.
हा समीचीनं. प्रदर्शिनी तत्र मकारः एव आगच्छति. हा द्वितीयविभक्तिरूपम् अस्ति. प्रदर्शिनीं गच्छामि इति तादृशरूपम् अस्ति. हा अस्तु. हा तत्र अग्रिमपुटे किम् अस्ति? हा तत् भवन्तं तत् हा तद् तत् कुर्मः. अस्तु इदानीं किम् अभवत्? कुत्र गच्छति, कुत्र गच्छामि इत्युक्ते विद्यालयं गच्छामि, ग्रन्थालयं गच्छामि, रेल्स्थानं गच्छामि, उद्यानं गच्छामि, प्रदर्शिनीं गच्छामि, तादृशमन्दिरं गच्छामि. तत्र मन्दिरं, रेल्स्थानं, देवालयं, ग्रन्थालयं सर्वं द्वितीया विभक्तिरूपम् इति वदामः. कर्मपदम् अपि इति वदामः. तत्र अग्रिमपुटे किमस्ति चेत् वयम् अहम् एषः अथवा सा सः इति तद् दृष्टवन्तः. इदानीं सः अस्ति, रामः अस्ति, अहं रामं पश्यामि. अस्तु किन्तु रामः अस्ति, सः रामः, अहं तं पश्यामि इति वदामः. सः अस्ति, अहं तं पश्यामि. रामः सः रामः, अहं तं पश्यामि. सा सीता, अहं तां पश्यामि. तं पश्यामि, तां पश्यामि. अथवा एषः रामः, अहम् एतं रामं पश्यामि इति तत्र द्वितीया विभक्तिरूपं भवति. तत्र सः भवति तं, सा भवति सः भवति तम्, एषः भवति एतं. प्रश्नः भवति कं, कं पश्यति, अहं रामं पश्यामि इति उत्तरं भवति. अस्तु तत्र स्त्रीलिङ्गे सा इति यदस्ति तद् तां भवति. सीता, सा सीता, अहं तां पश्यामि. एषा सीता, अहम् एतां पश्यामि. कां पश्यति? अहं सीताम्, एतां सीतां पश्यामि इति भवति. यदि नपुंसकलिङ्गः अस्ति चेत् तत् नपुंसकलिङ्गे परिवर्तनं न भवति. तत् पुस्तकम्, अहं तत् पुस्तकं पश्यामि. किन्तु सः वृक्षः, अहं तं वृक्षं पश्यामि इति भवति. एतत् पुस्तकम्, अहम् एतत् पुस्तकं पश्यामि. किं पश्यति? अहम् एतत् पुस्तकं पश्यामि. तदनन्तरं भवान् इति जानीमः, भवती इति जानीमः. भवान् किं भवति? कर्मपदरूपं, द्वितीयाविभक्तिरूपं भवन्तम् इति भवति. भवती किं भवति? भवतीं. यथा वयं कृतवन्तः प्रदर्शिनी, प्रदर्शिनीं गच्छामि, तत्र भवतीम् इति कर्मपदरूपं भवति. माम् इति, अहम् इति प्रथमाविभक्तिरूपम् अस्ति, माम् इति द्वितीयाविभक्तिरूपं भवति. अस्तु तत्र कं, कां, किम् इति प्रश्नवाचकशब्दाः अपि तम्, एतं, ताम्, एतां, तत्, एतत् इति द्वितीयाविभक्तिरूपं भवत्, भवान् तद् भवति, भवन्तं, भवती भवति, भवतीं. तस्य प्रयोगः कथम् इति अत्र दत्तमस्ति. तत्र एकम् कुर्मः. तत्र रिक्तस्थानमस्ति, तद् कः पठति? सरला भगिनी पठति वा?
अस्तु, अत्र एकः सम्भाषणम् अस्ति. अहं रक्तवर्णे आवर्णे विद्यमानानां शब्दानाम् उचितरूपाणि रिक्ते स्थले लिखतु. पिता, पुत्र, पाठः.
पिता पाठः अस्ति,
पाठः तस्य द्वितीयविभक्ति.
अस्तु, अतः वाक्यं भवति
पिता पुत्रं
वदति,
पुत्र पाठं पठतु.
हा, समीचीनम्. इदानीं पुत्रः किं वदति?
पुत्रः, अहं पाठं पठितुं न शक्नोमि.
पठितुं
न शक्नोमि.
समीचीनं भगिनि. हा, समीचीनं भगिनि. हा, इदानीं प्रिया भगिनी अग्रिमम्. अग्रे
पिता, किमर्थं पुत्रः? अहं विद्यालयं न गतवान्.
हा, विद्यालयं न गतवान्. समीचीनं भगिनि. हा, विद्यालयं न गतवान्. हा, अग्रे.
पिता, भवतु, अहं भवन्तं पाठयामि.
हा, समीचीनं. भवान् भवति, भवन्तम् इति, अहं भवन्तं पाठयामि. समीचीनं भगिनि. हा, हर्षिता भगिनी अग्रे.
पिता, भवतु, अहं पाठयामि.
भवन्तं पाठयामि. तद् अभवत्. हा, हा, पुत्रः इदानीं.
हा, पुत्रः, सत्यं, भवान् पाठयति. भवान्,
तत्र अहम् इति शब्दः, अहम् इति शब्दः अस्ति.
मया पाठय,
न तत्र अहं भवान् इति तद् कर्मपदरूपं भवति. भवन्तं, भवती भवति भवती, अहं भवति माम्.
सत्यं मां पाठयति.
सत्यं भवान्
मां पाठयति.
हा, पूर्णवाक्यं वदतु भगिनि. हा, सत्यं,
सत्यं भवान् मां पाठयति.
हा, अग्रे.
पिता, आं पाठयामि.
अग्रे.
पुत्री, ताता, अहम् अपि पाठयतु. पुत्री, ताता, माम् अपि पाठयतु.
हा, समीचीनं भगिनि, समीचीनं भगिनि. अस्तु, तत्र नरेश् महोदय अग्रे करोति वा?
आम्, पिता, अस्तु, भवतीम् अपि पाठयामि.
हा, समीचीनम्. हा, अग्रे.
पुत्रः कदा पाठयति? पिता, इदानीं भवन्तं पाठयामि.
समीचीनं महोदय, समीचीनं. हा, गीता भगिनी अग्रे.
पुत्रः अनुजाम्
समीचीनं भगिनि.
अनुजां कदा पाठयति? पिता, तां सायङ्काले पाठयामि.
हा, समीचीनं भगिनि.
सायङ्काले पाठयामि. वदतु, कः पाठः पाठयामि?
तत्र कः पाठः प्रथमविभक्तिरूपम् अस्ति. कं पाठम् इति कर्मपदं भवति. कं पाठं पाठयामि, वदतु, कं पाठं पाठयामि इति. वंशीसुधा भगिनी अग्रे.
पुत्रः, पुत्रः एतं पाठं पाठयतु. पिता, सर्वं पाठ
बहुवचनमेव तत्र प्रायशः सर्वान् पाठान् पाठयामि इति
आम् महोदय सर्वान् पाठान् पाठयामि
हा समीचीनं भगिनि तत्र बहुवचनरूपं न अवश्यमस्ति न दत्तं किन्तु सर्वान् पाठान् इति भवति तत् अग्रे पश्यामः किन्तु कर्मपदं कीदृशम् इति किञ्चित् अभ्यासः तत्र दृष्टवन्तः वयम् अस्तु तत्र अत्र द्वितीयाविभक्तिरूपं तदेव अस्ति नदी भवति नदीं लता भवति लतां भवान् भवति भवन्तं भगवान् भवति भगवन्तम् इति भवती भवति भवतीम् अहं भवति माम् अस्तु तत्र अग्रे गच्छामः तत्र षष्टिविभक्तिरूपस्य प्रयोगः इदानीम् अग्रे भवति तत्र गीता भगिनी पठति वा अग्रे 8.1
एकः प्रश्नः अस्ति महोदय पिता भवतु अहं भवान् इन् ब्राकेट् इस् भवन्तं रैट् अहं भवन्तं पाठयामि इत्युक्ते भवन्तम् इस् द पुत्रः
आमामां सत्यं
भवन्तं
सत्यं 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 हा
तदेव भवन्तमेव द्वितीय विभक्ति यु न भवन्तं विल् टीच् यु रामं दट् इस् द्वितीय विभक्ति
तत्र प्रश्नः अस्ति किमर्थं प्रथमपुरुषः अस्ति भवान् इति प्रथमपुरुषः अस्ति भवान् त्वम् इति मध्यमपुरुषः भवति किन्तु भवान् किन्तु भवान् इति अस्ति भवन्तं पाठयामि तत्र भगिनी अत्र पश्यतु पिता पुत्रीमपि किं वदति अहं भवतीं पाठयामि सत्यं सत्यं तदेव वयमपि करणीयं कर्तव्यः अस्ति
संस्कृते एव सर्वे रेस्पेक्ट् एव भवति
महोदय सत्यं सत्यं
The only language which has lot of respect in the world is Sanskrit. That's right. What I
yeah, mm-hmm. for even to your Satyam. Own children, you know, so that's a very nice.
Mm-hmm. Satyam, Satyam, Satyam. Astu, haan. Samichina prana, samichina amshaha, tatra, haan. Anya prashna, Satyiva? Astu, haan, agre gacchamaha? Sir. Haan.
8.1, sahat keshavaha. सः केशवः केशवस्य पुरतः शकटः अस्ति तस्य पृष्ठतः वसतिमन्दिरम् अस्ति तस्य दक्षिणतः देवालयः अस्ति तस्य वामतः वृक्षः अस्ति देवालयस्य उपरि कलशः अस्ति शकटस्य अधः शुनकः अस्ति पुरतः वामतः उपरि पृष्ठतः दक्षिणतः अधः
तत्र यदि तत्र किं मुख्य अंशः अत्र किम् अस्ति चेत् यदि पुरतः पृष्ठतः दक्षिणतः वामतः उपरि अथवा अधः इति वक्तुम् इच्छामः तस्य पूर्वपदस्य षष्टिविभक्तिरूपम् इति वदामः केशवः अस्ति केशवस्य सः अस्ति तस्य देवालयः अस्ति देवालयस्य शकटः अस्ति शकटस्य अधः शुनकः अस्ति इति भवति तत्र तत्र प्रायशः उपरि इति वृक्षः अस्ति उद्यानं तत्र हा एतदेव दृष्ट्वा प्रश्नः प्रष्टुं शक्नुमः. अस्तु प्रिया भगिनी, शकटस्य पृष्ठतः कः अस्ति?
शकटस्य पृष्ठतः वृक्षः अस्ति.
हा तदपि समीचीनं, किन्तु केशवस्य
पृष्ठतः शकटः अस्ति.
हा वसतिमन्दिरमपि अस्ति. हा अस्तु, पुरतः शकटः अस्ति. हा किन्तु एकनिमिषं भगिनि, तस्य पृष्ठतः इति, हा तत्र तस्य पृष्ठतः वसतिमन्दिरम् अस्ति, तत्र तस्य पदस्य अर्थः कः?
षष्ठीविभक्ति.
आमां सत्यं, तस्य इत्युक्ते कस्य?
शकटस्य, शकटस्य
केशवस्य.
केशवस्य
सर्वं केशवस्य इति मन्ये न?
I thought you were asking with respect to the shakatam that when you asked me the question.
Amma satyam satyam bhagini, ataha eva prashnam krishtavan. Kshamitam ha, tatra keshavasya puratah shakatah asti, shakatasya prushtatah kah asti iti tavat eva. Ha tad kevalam tad vakyam svikaratu. Keshavasya puratah shakatah asti, शकटस्य पृष्ठतः कः अस्ति? पुरतः तस्य केशवस्य पुरतः शकटः अस्ति, शकटस्य पृष्ठतः कः अस्ति?
केशवः अस्ति.
हा केशवः अस्ति. तद् पूर्णवाक्यं वदतु.
शकटस्य पृष्ठतः केशवः अस्ति.
तत्र वाक्यस्य परिवर्तनं कृत्वा, नो चेत् यद् वाक्यम् अस्ति तदेव पठामः इति चिन्तयित्वा अहं किञ्चित् वाक्यस्य परिवर्तनं कृतवान्, तावदेव. चिन्ता मास्तु भगिनि. हा हर्षिता भगिनी, तत्र हा वसतिमन्दिरस्य, हा कस्य पृष्ठतः वसतिमन्दिरमस्ति?
शकटस्य पृष्ठतः वसतिमन्दिरमस्ति.
न, केशवस्य एव भगिनि, केशवस्य
पृष्ठतः इति अर्थे बिहैण्ड्.
आम् सत्यं,
केशवस्य बिहैण्ड् वसतिमन्दिरं.
वसतिमन्दिरं न, चित्रं पश्यतु.
केशवस्य पुरतः, इन् फ्रण्ट् आफ् केशव शकटः अस्ति. केशवस्य पृष्ठतः वसतिमन्दिरं नास्ति, तस्य पुरतः एव
किन्तु अस्तु भगिनि, एकवारं चिन्तयामः. तत्र बालकः अस्ति, अपि केशवः अस्ति. बालकः केशवः न.
विक्रेता केशव अस्ति.
केशवस्य
किमर्थं एतत् वदामि इत्युक्ते, तत्र तस्य दक्षिणतः देवालयः अस्ति इति अस्ति
चित्रे. वसतिमन्दिरस्य दक्षिणतः एव मन्दिरम् अस्ति, केशवस्य दक्षिणतः एव मन्दिरम् अस्ति.
केशवः यः, केशवः अन्यः अस्ति, बालकः नास्ति. सत्यं वा? इदानीम् अहं प्रश्नं न स्मरामि यत् प्रश्नमासीत्.
प्रश्नः वसतिमन्दिरस्य
कस्य पृष्ठतः वसतिमन्दिरम् अस्ति इति. इदानीम् उत्तरं,
केशवस्य पृष्ठतः वसतिमन्दिरम् अस्ति.
हा समीचीनम्, अस्तु. अत्र किम् अन्यत् किं प्रष्टुं शक्नुमः? कस्य अधः शुनकः अस्ति कां पृच्छामः वंशीसुता भगिनी कस्य अधः शुनकः अस्ति
शकटस्य अधः शुनकः अस्ति
अस्तु हा गीता भगिनी कस्य वामतः वृक्षः अस्ति
केशवस्य वामतः वृक्षः अस्ति
हा अस्तु सरला भगिनी कस्य दक्षिणतः वृक्षः अस्ति
कस्य दक्षिणतः वृक्षः अस्ति
वृक्षः अस्ति केशवस्य वामतः वृक्षः अस्ति कस्य दक्षिणतः वृक्षः अस्ति बालकः अस्ति केशवः अस्ति
बालकस्य दक्षिणतः वृक्षः अस्ति
हा समीचीनम् अस्तु नरेश् महोदय वक्तुमिच्छति वा
आम्
अस्तु कस्य वामतः देवालयः अस्ति
बालकस्य वामतः देवालयः अस्ति
समीचीनं महोदय अस्तु हा सर्वे कृतवन्तः इति मन्ये अस्तु तत्र पृष्ठतः पुरतः वामतः दक्षिणतः इति तत्र षष्टिविभक्तिरूपं भवति अस्तु अग्रे गच्छामः हर्षिता भगिनी अग्रे पठति वा
आं महोदय एतत् चित्रं पश्यतु अनन्तरम् एतानि वाक्यानि शुद्धानि अशुद्धानि वा इति लिखतु गृहस्य पुरतः वृक्षः अस्ति गृहस्य वामतः उद्यानम् अस्ति
गृहस्य वामतः उद्यानम् अस्ति वा
नास्ति गृहस्य वामतः
न गृहस्य वामतः न किन्तु अन्यत् किं भवति तत्र केवलं वामतः इति तस्य परिवर्तनं करोतु
गृहस्य पुरतः उद्यानम् अस्ति
पुरतः इति वक्तुं शक्नुमः अस्तु दक्षिणतः तदपि वक्तुं शक्नुमः प्रायशः पुरतः एव समीचीनम् अस्तु अस्तु भगिनि समीचीनं प्रिया भगिनी अग्रिमम्
आम् महोदय बालकः वृक्षस्य उपरि अस्ति बालकः वृक्षस्य उपरि नास्ति बालकः वृक्षस्य पुरतः अस्ति
पुरतः अस्ति समीचीनं भगिनि अस्तु अधः तदपि वक्तुं शक्नुमः पुरतः अपि समीचीनं पुरतः अपि समीचीनं खलु हा पुरतः अथवा अधः द्वयमपि समीचीनम् इति अत्र हा नरेश् महोदय अग्रिमं हा
वृक्षस्य अधः वृद्धः अस्ति नास्ति वृक्षस्य अधः वृद्धः नास्ति
अथवा बालकः अस्ति इति
बालकः
वृक्षस्य अधः बालकः अस्ति हा समीचीनं सरला भगिनी अग्रिमं
गृहस्य पृष्ठतः मार्गः अस्ति गृहस्य पृष्ठतः गृहस्य पुरतः मार्गः अस्ति
हा गृहस्य पुरतः मार्गः अस्ति हा सरला भगिनी अग्रिमम् आम्
इदानीं गृहस्य पुरतः मार्गस्य उक्तवती
गीता भगिनी गीता भगिनी अग्रे
बालकस्य हस्ते नारिकेलफलम् अस्ति बालकस्य हस्ते नारिकेलफलं नास्ति
अत्र नारिकेलफलं कुत्र अस्ति
उपरि वृक्षः उपरि अस्ति
वृक्षस्य उपरि
वृक्षस्य
उपरि अथवा बालकस्य उपरि अस्तु वृक्षस्य उपरि इति चिन्तयामः वृक्षस्य उपरि नारिकेलफलं अस्ति अस्तु तत्र किम् अन्यत् किं प्रष्टुं शक्नुमः बालकस्य पृष्ठतः किम् अस्ति वंशिष्यत भगिनि तस्मिन् चित्रे गृहं वा उद्यानं वा किमस्ति बालकस्य पृष्ठतः किम् अस्ति वंशिष्यत भगिनि अस्तु अस्तु नास्ति इति मन्ये अस्तु तत्र प्रायशः एतस्य अवगमनम् अभवत् इति मन्ये पुरतः पृष्ठतः दक्षिणतः वामतः उपरि अधः तस्य प्रयोगः यत्र भवति तत्र षष्टिविभक्तिरूपं भवति गृहस्य बालकस्य तादृश नारिकेलफलस्य इति तादृशरूपः भवति तत्र किञ्चित् तत्र अभ्यासं कर्तुम् अग्रिमम् अभ्यासे अपि तत्र षष्टिविभक्तिरूपम् एव अस्ति किन्तु अत्र गृहस्य इति तस्य किञ्चित् भवन्तः एव एकमेकं वाक्यं वदतु पुरतः पृष्ठतः वामतः इति उपयुज्य एकं वाक्यं चिन्तयित्वा वदतु सल्ला भगिनी वदति वा
वृक्षस्य उपरि नारिकेलफलानि च वानर अस्ति
नारिकेलफलानि च नारिकेलफलानि वानरं
च सन्ति
सन्ति समीचीनं भगिनि सन्ति समीचीनं गीता भगिनि
गृहस्य पृष्ठतः पर्वतमस्ति
गृहस्य अस्तु समीचीनं भगिनि नरेश महोदय वाक्यं वदति वा
बालकस्य वामतः कुक्कुटः अस्ति
समीचीनम् अस्तु हर्षिता भगिनी वदति वा वाक्यं
वृद्धस्य अधः कुक्कुटः अस्ति
समीचीनं भगिनि प्रिया भगिनी
बालकस्य दक्षिणतः उद्यानम् अस्ति
वंशीसुधा भगिनी वदति वा वृक्षस्य
पृष्ठतः गृहमस्ति
वृक्षस्य पृष्ठतः गृहमस्ति अस्तु तदेव अस्ति तत्र अस्तु उपरि अधः इति तस्य प्रयोगं यत्र भवति तत्र षष्टिविभक्तिरूपं भवति अस्तु अग्रे किञ्चित् समयः अस्ति अग्रिममपि कर्तुं शक्नुमः इति मन्ये प्रिया भगिनी अग्रिमं पठति वा 8.2e इति
बालकः कुत्र अस्ति बालकः बहिः अस्ति बालिका कुत्र अस्ति बालिका अन्तः अस्ति मार्जालः कुत्र अस्ति मार्जालः अन्तः अस्ति शुनकः कुत्र अस्ति शुनकः बहिः अस्ति
अन्तः बहिः धन्यवादः भगिनि अन्तः बहिः कुत्र इति प्रश्ने अन्तः अथवा बहिः तदेव रूपम् अस्ति तत्र एतदपि वक्तुं शक्नुमः गृहस्य बहिः अस्ति अथवा गृहस्य अन्तः अन्ते अस्ति इति वदामः अथवा अन्तः अस्ति अथवा बहिः अस्ति तदपि वक्तुं शक्नुमः अस्तु तावदेव तत् षष्टिविभक्तिरूपं तस्य अभ्यासः इति मन्ये तत्र अग्रे यदस्ति तदपि कर्तुं शक्नुमः अस्तु ततः कुतः इतः इति अस्तु नरेश महोदय अस्ति वा अग्रिमं 9.1 इति तत् पठति वा
आम् पुत्रः एतत् लोकयानं कुतः आगतम् पिता मैसूरतः आगतम् पुत्रः इतः कुत्र गच्छति पिता इतः मैसूरु गच्छति
मैसूरु गच्छति हा
पुत्रः ततः कदा आगमिष्यति पिता ततः श्वः आगमिष्यति पुत्रः एते जनाः किं कुर्वन्ति पिता एते इतस्ततः सञ्चरन्ति
हा तत्र कुतः फ्रम् वेर् इति फ्रम् वेर् कुतः इति पञ्चमीविभक्तिरूपम् इति वदामः कुतः आगतं मैसूरुतः आगतं मैसूरुनगरतः आगतं फ्रम् मैसूरु इति इतः कुत्र गच्छति फ्रम् हियर् वेर् विल् इट् गो इतः कुत्र गच्छति इतः मैसूरु गच्छति
ततः अत्र मैसूरं न वदामः वा इतः मैसूरं गच्छति
इतः मैसूरु
द्वितीयविभक्ति न भवति तत्र
हा तत्र
अत्र
मैसूरुनगरं तत्र मैसूरुनगरम् इति प्रायशः चिन्तयन्ति तत् नपुंसकलिङ्गे अति अस्ति इति कृत्वा प्रायशः मैसूरुनगरम् अथवा मैसूरु इति वदन्ति इति मन्ये भगिनी भवती यत् चिन्तयति समीचीनमेव अस्ति किन्तु नगरं हा नगरं तत् नपुंसकलिङ्गे अस्ति इति कृत्वा प्रायशः ते तादृशचिन्तनं तेषां चिन्तनं तादृशः अस्ति इति मन्ये हा किन्तु समीचीनः प्रश्नः एव तत्र मैसूरुनगरं तत्र कर्मपदं द्वितीयविभक्तिरूपमेव अपेक्षितं सत्यं हा इतः मैसूरुनगरं गच्छति ततः ततः कदा आगमिष्यति फ्रम् देर् वेन् विल् इट् कम् ततः श्वः आगमिष्यति एते जनाः किं कुर्वन्ति एते जनाः इतः ततः सञ्चरन्ति तत् इतस्ततः भवति हियर् एण्ड् देर् दे आर् जस्ट् गोयिङ्ग् हियर् एण्ड् देर् इति एते इतस्ततः सञ्चरन्ति इति भवति तत्र कुतः इतः ततः इतस्ततः तत् तदेव अस्ति तस्य अभ्यासः अग्रिमसप्ताहे कुर्मः समयः जातः किन्तु अत्र किञ्चित् वयं किं किं कृतवन्तः चेत् पुरतः पृष्ठतः तस्य अपि कर्मपदस्य किञ्चित् अभ्यासः अपि कार्यालयं तत्रापि कर्मपदस्य अभ्यासः एतत् सर्वं वयम् अद्य कृतवन्तः कदा अपि कृतवन्तः अद्य अस्तु धन्यवादः अहं दूरवाणीमुद्रणं प्रेषयामि गृहपाठमपि ईमेल् द्वारा ईपत्रद्वारा प्रेषयामि अस्तु प्रश्नः अस्ति चेत् पृच्छन्तु नो चेत् विरमामः
धन्यवादः
नमस्कारः धन्यवादः सर्वेषां नमस्कारः नमस्कारः